प्रस्थानकालोचितचारुवेशः सस्वर्गिवर्गैरनुगम्यमानः ततः कुमारशिरसानतेन त्रैलोक्यभर्तुः प्रणनामपादौ
प्रस्थानेति ततः अनन्तरम् स कुमारः कार्तिकेयः प्रस्थानकाले उचितः योग्यः चारुश्च वेषः यस्य तथा स्वर्गिवर्गैः इन्द्रादिदेवगणैः अनुगम्यमानः सन् न तेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे उपसर्गादसमासेऽपि इति णत्वम्
जहीन्द्रशत्रुम् समरे मरेश पदम् स्थिरत्वम् नय वीरवत्स इत्याशिषा तम् प्रणमन्तमीशः मूर्धन्युपाघ्राय मुदाभ्यनन्दत्
जहीति प्रणमन्तम् नमस्कुर्वन्तम् तम् कुमारम् ईशः हरः मुदा प्रीत्या मूर्धनि उपाघ्राय गन्धम् उपादाय हे वीर हे वत्स समरे युधि इन्द्रशत्रुम् तारकम् जहि मारय अथ अमरेशपदम् इन्द्रपदम् स्वर्गम् स्थिरत्वम् स्थैर्यम् नय प्रापय उभयत्रापि आशिषि लोट् इत्येवम् भूतया आशिष आशीर्वादेन अभ्यनन्दत् अस्तौषीत्
प्रह्वी भवन् नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगम् स्वमातुः तस्याः प्रमोदाश्रुपयः प्रवृष्टिः तस्याभवद्वीरवराभिषेकः
प्रह्वीति स कुमारः प्रह्वीभवन् नम्रीभवन् सन् नम्रतरेण मूर्ध्ना अत्र प्रह्वीभवन्नित्यनेनैव मूर्ध्नः नम्रत्वे सिद्धे पुनः विशेषणोपादानम् सामान्यतः अन्येषाम् अङ्गानाम् नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् पुनः उपादानेन तरग्रहणलिङ्गाच्च स्वमातुः अङ्घ्रियुगम् चरणद्वन्द्वम् नमश्चकार तस्याः पार्वत्याः सम्बन्धीनि यानि प्रमोदाश्रुपयांसि तेषाम् प्रवृष्टिः वर्षणम् तस्य कुमारस्य वीरेषु वरस्य श्रेयसः सेनापतेरित्यर्थः तस्य अभिषेक इव यः अभिषेकः सः अभवत् तस्य यादृगभिषेको भवति सः मात्रश्रुपयो वृष्टिः आशिरश्चरणनखपर्यन्तम् प्लावयन्त्यभूदिति भावः
तमङ्कमारोप्यसुता हि माद्रेः आश्लिष्य गाढम् सुतवत्सला सा शिरस्युपाघ्राय जगादशत्रुम् जित्वा कृतार्थी कुरु वीरसूम् माम्
तमिति सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तम् पुत्रम् अस्य ल्यबन्तत्रयेण सम्बन्धो विधेयः अङ्कम् उत्सङ्गम् अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कम् पापदुःखयोः इति मेदिनी आरोप्य संस्थाप्य तथा गाढ़ं दृढ़ं यथा तथा प्रगाढ़ कुच्छ्रदृढ़योः इति मेदिनी प्रेति त्रित्वसंघातनिवेशनायैव एवं विना तदलाभात् आश्लिष्य आलिंग्य तथा शिरसि उपाघ्राय च हे वत्स त्वं शत्रुं तारकं जित्वा वीरं सूते सा वीरसूः तथोक्तां मां कृतार्थीकुरु इति जगाद एवं विधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यप्रसृतिशीलेन यशसा धवलीकृतं सत् एष यदीयः पुत्रः सा कृतार्थैव इति वर्णयिष्यतीत्यतः मत्कृतार्थत्वं सिद्धमेवेति भावः
उद्दामदैत्येष विपत्तिहेतुः श्रद्धालुचेता समरोत्सवस्य आपृच्छ्य भक्त्या गिरिजा गिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः
उद्दामेति ततः अनन्तरम् उद्दामः उद्भटः यः दैत्येषः तारकः तस्य विपत्तिः मृत्युः तस्याः हेतुः कारणम् तत्कर्ता इत्यर्थः तथा समरोत्सवस्य संग्रामरूपस्य उत्सवस्य मह उद्धव उत्सवः इत्यमरः इयम् कर्मणि षष्ठी सम्बन्धमात्रविवक्षितत्वात् इह षष्ठ्यन्तस्य वृत्तिगतेनापि श्रद्धाशब्देन नित्यसम्बन्धवशात् सम्बन्धम् कृत्वा कृद्योगलक्षणा षष्ठी समर्थनीया केचित्तु समरोत्सवे सह इति विषयलक्षणसप्तम्यन्तत्वम् अङ्गीकृत्य पठन्ति तत्रापि समासवृत्तिगतस्य श्रद्धालुशब्दस्य सम्बन्धः दुर्घट इत्यलम् श्रद्धालुः भक्तिशीलम् चेतः यस्य संग्राम श्रद्धाधायक इत्यर्थः एवम्भूतः कुमारः भक्त्या भक्तिपूर्वकम् गिरिजागिरीशौ पितरौ आपृच्छ्य मया गम्यत इत्युक्त्वा इत्यर्थः दिवम् अभि प्रतस्थे चचाल समवप्रविभ्य इत्यात्मने पदम्
देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि प्रदक्षिणीकृत्य च नाकनाथ पूर्वाः समस्तास्तमथानुजग्मुः
देवमिति ततः अनन्तरम् नाकनाथपूर्वाः इन्द्रप्रमुखाः समस्ताः त्रिदिवौकसः देवाः अपि पूर्वोक्तकुमारप्रस्थानसमुच्चायकः अपिशब्दः अपि सम्भावना प्रश्नाशङ्कागर्हासमुच्चये इति विश्वः